एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम्। प्रस्तोत्री रत्नावली शर्मा। कास्की जनपद न्यायालयेन राष्ट्रिय स्वतन्त्र दलस्य सभापतिम् रवि लामिछाने विधम् 65,00,000 रूप्यकात्मकम् न्यासवित्तम् संस्थाप्य उन्मोक्तुम् आदिष्टमस्ति। कास्की जनपद न्यायालयस्य न्यायाधीशस्य नीतिज राई इत्यस्य न्यायपीठेन लामिछाने विधम् उन्मोक्तुम् आदेशः प्रदत्तोऽस्ति इति कास्की जनपद न्यायालयस्य सूचना अधिकारी सूरज अधिकारी अज्ञापयत्। राष्ट्रिय स्वतन्त्र दलस्य सभापतिना सहितानां 44 जनानां विरूद्धे कास्की जनपदस्य सर्वकारीयाधिवक्तृ कार्यालयेन 1,51,00,000 रूप्यकाणां याचना सहितम् अभियोजन पत्रम् पञ्जीकारितमासीत्। लामिछाने इत्यस्य विरूद्धे सहकारी संस्थायाः वञ्चनस्य, सम्पत् शुद्धिकरणस्य, संघटितापराधस्य च अभियोगे अभियोगपत्रम् पञ्जीकारितमासीत्। प्रहरिणा लामिछाने पूर्व प्रहरी उपरीक्षक छविलाल जोशी, लीला पछाई, मीना गुरूङ चित्तेतैः सहितान् 44 जनान् प्रतिवादिनो विधाय अभियोगपत्रम् पञ्जीकारितमासीत्। अत्रान्तरे राष्ट्रिय स्वतन्त्र दलस्य सभापतिः रवि लामिछाने न्यायालयेन निर्धारितम् न्यासवित्तम् समर्प्य ह्य एव कारामुक्तोऽस्ति। कास्की जनपद न्यायालयेन अभियोगपत्रम् पञ्जीकारितेषु जनपदेषु स्वयम् उपस्थातुम् निर्दिश्य लामिछाने परिवाराय समर्पितोऽस्ति। कर्णाली प्रदेश सर्वकारेण भूकम्पात् क्षतिग्रस्तानां जाजरकोट रूकुम पश्चिम जनपदयोः विद्यालयानां स्वास्थ्य संस्थानां च पुनर्निर्माणं करिष्यते। जाजरकोट रूकुम पश्चिम जनपदयोः 27 विद्यालयानां 5 स्वास्थ्य संस्थानां च पुनर्निर्माणं विधीयमानम् अस्ति इति प्रदेश सर्वकारेण ज्ञापितं वर्तते। विद्यालय भवनानां निर्माणाय 29 60,00,000 च रूप्यकाणि, 5 स्वास्थ्य संस्थानां पुनर्निर्माणाय 2 40,00,000 च रूप्यकाणि स्वीकृतानि सन्ति इति पूर्वाधार विकास मन्त्रालयेन ज्ञापितं वर्तते। औषध व्यवस्था विभागेन प्रतिबन्धित जीवाम्लस्य खनिज मिश्रित औषधानां च विक्रय वितरणयोः कार्यं विहितं सद्दण्ड्यते। विभागेन औषधानां पूरक सामग्रीणां वितरण सम्बद्ध सूचनां प्रकाशयता अपञ्जीकारितानां नेपाल सर्वकारात् प्रतिबन्धितानां च औषधानां विक्रय वितरणस्य कार्यं सञ्चलदस्तीति सूचनायाः प्राप्तेः पश्चात् प्रतिबन्धित जीवाम्लस्य खनिज मिश्रित औषधानां च विक्रय वितरणयोः कार्यम् अविलम्बं रोद्धुम् अनुरुद्धं वर्तते। मुगलिन मलेखु मार्गस्य स्तरोन्नतेः क्रमे सम्प्रति यातायात साधनानां सञ्चालनं विधायैव नैरन्तरेण नागढुङ्गा मुगलिन मार्गायोजनायाः पश्चिमखण्डेन ज्ञापितं वर्तते। आयोजनायाः पश्चिमखण्डस्य स्थपतिना विजय दराई इत्यनेन अशैव पौषमासस्य 7 दिनांकात् 13 दिवसं यावत् यातायात साधनानि अवरुद्ध्य कार्यं सञ्चालितं सदपि सम्प्रति सञ्चालनेन विनैव नैरन्तरेण कार्यं सञ्चलदस्ति इति अवरोध विनैव नैरन्तरेण कार्यं सञ्चलदस्तीति ज्ञापितं वर्तते। वर्षत्रयस्य अभ्यन्तरे कार्यस्य सम्पादनत्वेन संविधा विहिता सत्यपि अधुनावधि प्रतिशतं 20% एव कार्यं सम्पन्नम् अस्ति इति आयोजनया ज्ञापितं वर्तते। प्रधानमन्त्री नेकपा एमाले दलस्य अध्यक्षस्य केपी शर्मा ओली निगदति दलस्य नीतिम् नेतृत्वं च अंगीकृतवतः सर्वान् ऐक्यबद्धान् विधायक कार्यं करिष्यति। अखिल नेपाल राष्ट्रिय स्वतन्त्र विद्यार्थी युनियन संघटनेन ह्य ललितपुरे आयोजितायां राष्ट्रिय कार्यशालायां सम्बोधनं कुर्वन् अध्यक्षः ओली एकतायाः नाम्नि दलस्य नीति विरुद्धः गतिविधयः स्वीकर्तुं न शक्यन्ते इति समस्पष्टयत्। दलस्य जनवर्गीय संघटनां नेतृभ्य प्रजातन्त्रस्य जनवादस्य च नामनि स्वेच्छाचारितया भाषणस्य अराजकतायाश्च अवकाशो नास्तीति चर्चयन् अध्यक्षः ओली दले स्वविचाराः प्रस्तोतुं शक्यन्ते परन्तु नेतृत्वस्य निर्णयः स्वीकरणीयो भवतीति अभाषत। अध्यक्ष ओली संघटन विस्तारस्य दलस्यैकतायाश्च व्याजेन अक्षमेभ्य जनेभ्य दायित्वम् अर्पयितुं न शक्यते इति समस्पष्टयत्। कार्यक्रमे एमाले दलस्य महासचिव शंकर पोखरेल नीतिनां विचाराणां कार्यक्रमाणां च सम्यक्तया छात्रेषु सम्प्रेषणेन अनेरासोवियु इति छात्र संघटनं छात्राणां रुचेः संघटनं सम्भवितुं शक्नोति इति अभाषत। विश्वविद्यालयेषु फाल्गुन मासस्य पञ्चदशे दिवसे स्वतन्त्र विद्यार्थी यूनियन संघटनस्य निर्वाचनस्य निर्धारणानन्तरं तस्य पूर्वकार्यत्वेन अनेरासोवियु इति छात्र संघटनेन राष्ट्रिय कार्यशाला गोष्ठी आयोजिता आसीत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरुङ भाषते जनतायाः विकास वाञ्छां पूरयितुं सर्वकारेण कार्यं विधीयमानमस्ति। लमजुङ जनपदे ह्य आयोजिते कार्यक्रमे संचार मन्त्री गुरुङ शिक्षा स्वास्थ्य पेयजल भौतिक पूर्वाधार संचार क्षेत्राणां विकासेन सहैव वृत्त्युपार्जनस्य अवसरान् स्रष्टुं सर्वकारः प्रतिबद्धोऽस्ति इति अगदत्। शिक्षा विज्ञान प्रविधि मन्त्री विद्या भट्टराई निगदति शिक्षा क्षेत्रं राजनीतिक दलानां प्रभावात् पृथक् स्थापयितुम् आत्मना प्रयासः विधीयमानो वर्तते। शिक्षा पत्रकार सञ्जालेन ह्य आयोजिते कार्यक्रमे मन्त्री भट्टराई शैक्षिक क्षेत्रं राजनीतिक प्रभावात् पृथक् स्थापयितुम् आत्मनः सदैव क्रियाशीलता अस्ति इति अभाषत। शिक्षा क्षेत्रस्य सर्वान् विषयान् सम्बोधयितुं संविधानस्य व्यवस्थायाः अनुसारेण आधारभूतां शिक्षाम् अनिवार्यां विधातुम् आत्मनः प्रयासोऽस्ति इति चर्चयन्ती मन्त्री भट्टराई माध्यमिक शिक्षा परीक्षायाः सञ्चालनं प्रदेशेभ्य एव विधातुं पूर्वकार्यं विधीयमानमस्ति इति उदैरयत्। प्रतिनिधि सभा अन्तर्गतस्य राष्ट्रिय सम्बन्ध पर्यटन समितेः उपवेशेन नेपाल वायु सेवा निगमस्य समस्यानां समाधानाय अध्ययनं विधाय मासाभ्यन्तरे समितेः समक्षं प्रतिवेदनं प्रस्तोतुं सांसदस्य शिशिर खनालस्य संयोजकत्वे चतुस्सदस्यीया समितिः संघटिता वर्तते। उपवेशेन देशस्य विभिन्नेषु जनपदेषु विद्यमानस्य वायु सेवा निगमस्य स्वामित्वे विद्यमानायाः भूमेः भौतिक सम्पदः उपयोगस्य योजनां निर्माय शीघ्रातिशीघ्रं क्रियान्वीय च समितिं ज्ञापयितुं निर्दिष्टमस्ति। तत्पूर्वम् उपवेशे संस्कृति पर्यटन नागरिक उड्डयन मन्त्री बद्री प्रसाद पाण्डेयः निगमस्य समस्यानां समाधानाय प्रतिबद्धताम् अभिव्यनक्। सार्वजनिक सेवा प्रसारण रेडियो नेपालस्य नेपाल टेलिभिजनस्य सामुदायिक रेडियो प्रसारक संघ नेपालस्य च मध्ये सूचनायाः सहकार्यस्य च विषये ह्यः विमृष्टमस्ति। सिंहप्रासादवर्तिनी सार्वजनिक सेवा प्रसारणस्य कार्यालये आयोजिते विमर्शने सार्वजनिक सेवा प्रसारण कार्यकार्याध्यक्षः डॉ महेन्द्र विष्टः द्वयोः संस्थयोः उद्देश्यं नागरिकेषु सूचनायाः प्रसारणं कृत्वा देशस्य समृद्धये कार्यं सम्पादनम् अस्तीत्यतः सहकार्यं विधाय अग्रे सर्तुं शक्यते इति अभाषत। सामुदायिक रेडियो प्रसारक संघ नेपालस्य अध्यक्ष अर्जुन गिरी सामुदायिक रेडियो प्रसारणस्य स्थापना कालादेव महत्वपूर्णं योगदानमस्ति इति अभाषत। इति समाचारः।